Lesson 14, Exercise 1, pages 116 and 117. Etasyaha nadyaha jalam prasannam vidyate. Tat prasannam jalam pitva vyadhitaha janaha api sukham labhante. Ka esha nadi? Esha ganga. सा भारत देशे वहति एकदा कश्चित् अंधः कश्चित् च खञ्जः कस्मिंश्चित् ग्रामे अवसताम् अंधः न द्रष्टुं समर्थः खञ्जः न चलितुं समर्थः किन्तु अंधः चलितुं समर्थः खञ्जः च द्रष्टुं समर्थः अंधस्य स्कंधे खञ्जः असीदत् अंधः मार्गेण अचलत् कुशलः खञ्जः च तस्मै मार्गम् अदिशत् एषः वृद्धः नरः वारि एव पिबति इति जनाः मन्यन्ते सः न कदापि अन्नं खादति इति अपि ते चिन्तयन्ति तथापि एषः प्रसन्नः पीनः च कथं वर्तते अहं तु चिन्तयामि एषः वृद्धः रात्रौ बहु अन्नं खादति इति यदा सः रात्रौ अन्नं खादति तदा जनाः तं न पश्यन्ति ततः ते तं शंसन्ति या नदी सर्वेभ्यः जनेभ्यः सर्वदा सर्वं जलं यच्छति सा किं न उदारा केचित् गुरवः शिष्येभ्यः सर्वं ज्ञानं न यच्छन्ति ते न उदाराः ते क्षुद्राः एव इति अहं मन्ये अस्माकं गुरवः क्षुद्राः मा भवन्तु इति एव अहं ईश्वरं अर्थये गुरुः कथं गुरुः भवति यतः गुरोः ज्ञानं गुरु भवति ततः सः गुरुः भवति इति गुरवः वदन्ति केषाञ्चित् गुरूणां शरीराणि अपि गुरूणि भवन्ति केषाञ्चित्तु शरीराणि एव गुरूणि भवन्ति यतः तेषां ज्ञानं लघु भवति ततः ते गुरवः एव न वर्तन्ते इति सर्वे कुशलाः शिष्याः मन्यन्ते यद्वारि तदेव अम्बु तदेव च जलम् अत्र तदेव वस्तु बहवः तु शब्दाः जनाः वारि पिबन्ति ते अम्बुनि पात्राणि क्षालयन्ति नद्याः जले च स्नानाय गाहन्ते तथा बहवः देवाः एकं तु सत्यम् इति मुनयः जनेभ्यः कथयन्ति एकः एव ईश्वरः बहवः तु शब्दाः केचित् जनाः शिवः इति वदन्ति केचित् विष्णुः इति केचित् अल्ला इति केचित्तु जेहोवा इति ईश्वरः तु सः एव नवे पात्रेऽहं स्वादु मधु खादितुमिच्छामि मम माता मां कथयति नवं पात्रं क्षालयित्वा एव तस्मिन् मधु भक्षय इति ततः अहं तत् नवं पात्रं क्षालयामि यदा अहं तत् पात्रं क्षालयामि तदा एव मे स्वसारौ गृहमागत्य सर्वं मधु भक्षयतः अधुना एतस्मिन् नवे पात्रे किं भक्षयेयम् दारुणो गृहम् अनलो दहति इति मत्वा अहं दारुणो गृहे न वसामि सः एतस्य देशस्य यद्यपि नेता भवति तथापि तस्य भार्या तस्य नेत्री वर्तते। तस्मात् बहवो जनाः तं नेतारं न इच्छन्ति। ये जनाः तस्मै न स्पृहयन्ति तान् सः शुचीन् साधून् च न मन्यते। यतः अहं तस्मै स्पृहयामि ततः अहं साधुः भवामि इति सः चिन्तयति। सुगन्धीनि कुसुमानि दृष्ट्वा अहं तानि प्रति धावामि। यानि कुसुमानि सुगन्धीनि भवन्ति तानि एव चारूणि इति अहं मन्ये। एते कुसुमे यदि अपि चारुणि तथापि ते सुगन्धिनी न भवतः, ततः अहं ताभ्यां न स्पृहयामि। मम वृद्धा ननान्दा चारूणि एव कुसुमानि इच्छति, सुगन्धीनि कुसुमानि तस्यै न रोचन्ते। यस्य नरस्य भार्या चार्वी भवति स बहूनि मित्राणि लभते। यस्याः नार्याः भर्ता चारुः भवति सा अपि बहूनि मित्राणि लभते। सर्वे वृद्धाः नराः उदाराः न भवन्ति। यः खञ्जः वृद्धः अस्माकं गृहस्य पुरतो वसति सः काणः क्षुद्रः च वर्तते। यदि जनाः तं मृतं पश्येयुः तर्हि न कस्य अपि नेत्रयोः अश्रूणि भवेयुः।